प्रियव्रतस्य प्रियपुत्रभूतात् आग्नीध्रराजात् उदितो हिनाभिः त्वां दृष्टवान् इष्टदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञः स्वतुल्यं सुतम् अर्थ्यमानः स्वयं जनिष्येऽहम् इति ब्रुवाणः तिरोदधाः बर्हिषि विश्वमूर्ते नाभिप्रियायाम् अथ मेरुदेव्यां त्वम् अंशतो भूः ऋषभाभिधानः अलोकसमान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः त्वयि त्रिलोकीभृति राज्यभारं निधायनाभिः सह मेरुदेव्या तपोवनं प्राप्य भवन्निषेवी गतः किल आनन्दपदं पदं ते इन्द्रः त्वदुत्कर्षकृतात् अमर्षात् ववर्षनास्मिन् अजनाभवर्षे यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनत् व्यदधास् सुवर्षं जितेन्द्रदत्तां कमनीं जयन्तीम् अथोद्वहन् आत्मरताशयेऽपि अजीजनः तत्र शतं तनूजान् येषां क्षितीशो भरतोऽग्रजन्मा नवाभवन् योगिवराः नवान्येतु अपालयन् भारतवर्षखण्डान् सैकात्वशीतिः तव शेषपुत्राः तपोबलात् भूसुरभूयमीयुः उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गं स्वयं गतः पारमहंस्यवृत्तिम् अधाः जडोन्मत्तपिशाचचर्यां परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमानः विकारहीनो विचचारकृत्स्नां महीम् अहीनात्मरसाभिलीनः शयुव्रतं गोमृगकाकचर्यां चिरञ्चरन्नाप्य परं स्वरूपं दवाहृताङ्गः कुटकाचले त्वं तापान्मम अपाकुरु वातनाथा ओं तत्सदिति श्रीमन्नारायणीये विंशं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।